ಗುರುರ್ಬ್ರಹ್ಮ ಗುರುರ್ವಿಷ್ಣು ಗುರುರ್ದೇವ ಮಹೇಶ್ವರ ಗುರು ಸಾಕ್ಷಾತ್ ಪರಂ ಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ ಗುರವೇ ನಮಃ. ಓಂ
ಧನ್ಯವಾದ ಮೋದಿಯ ಸರ್ವೇಭ್ಯೋ ನಮಃ. ಸ್ವಾಗತ ಅಸ್ಮಿನ್ ವರ್ಗೆ. ಅಸ್ಮಾಕಂ ಪ್ರವರ್ತಮಾನ ವಿಷಯ ಅಸ್ತಿ ಹಲಂತ ಶಬ್ದಾನಾಂ ವಿಭಕ್ತಿ ರೂಪಾಣಿ. ತತ್ರ ಸರ್ವಾಣಿ ರೂಪಾಣಿ ದೃಷ್ಟಾನಿ ಏವ, ಕಿಂತು ಇದಾನಿಂ ತತ್ರ ಸಪ್ತಸು ವಿಭಕ್ತಿಷು ತತ್ರ ಮಿಶ್ರಿತಾಭ್ಯಾಸಃ ಇತಿ ಕೃತ್ವಾ ತತ್ರ ಕಥಾ ಅಸ್ತಿ ನ ವಿಕಂಪಿತುಂ ಅರ್ಹಸಿ ಇತಿ. ತತ್ರ ಪೇಜ್ 32 ಗೀತಾಸೋಪಾನಿ ದ್ವಿತೀಯ ಭಾಗೇ. ತತ್ರ ಪ್ರಾಯಶಃ ತತ್ರ ಪ್ರಥಮ ಪರಿಚ್ಛೇದಂ ಗತವರ್ಗೆ ಪಠಿತವಂತಃ. ತತ್ ಕೇವಲಂ ಏಕವಾರಂ ಪಠಿತ್ವಾ ಅಗ್ರೆ ಗಂತುಂ ಶಕ್ನುಮಃ ಇತಿ ಮನ್ಯೆ. ಅತಃ ತತ್ರ ನರೇಶ್ ಮಹೋದಯ, ಪ್ರಥಮ ಪರಿಚ್ಛೇದಂ ಏಕವಾರಂ ಪಠತಿ ವಾ ಮಹೋದಯ?
ಆಂ ಮಹೋದಯ. ಕಸ್ಮಿಂಶ್ಚಿತ್ ರಾಜ್ಯೇ ಕಶ್ಚನ ರಾಜಾ ಆಸೀತ್. ಸಹ ನೀತಿಮಾನ್ ಶಾಸ್ತ್ರವಿದ್ ಧಾರ್ಮಿಕಶ್ಚ ಆಸೀತ್. ತಸ್ಯ ಯಶಃ ಸರ್ವತ್ರ ಪ್ರಸೃತಂ ಆಸೀತ್. ತಸ್ಯ ಕಶ್ಚನ ಮಂತ್ರೀ ಅಪಿ ಆಸೀತ್. ಸಹ ವಿದ್ವಾನ್ ವಿವೇಕೀ ಶ್ರದ್ಧಾವಾನ್ ಚ ಆಸೀತ್. ಜ್ಞಾನಿನಃ ತಸ್ಯ ಉಪದೇಶಂ ಅನುಸೃತ್ಯ ರಾಜಾ ರಾಜ್ಯಂ ಪಾಲಯತಿ ಸ್ಮ. ತಸ್ಯ ಪ್ರಜಾಜನಾಃ ಗುಣಿನಃ ಧರ್ಮನಿಷ್ಠಾಃ ಕರ್ಮಶೂರಾಶ್ಚ ಆಸನ್. ಕೃಷ್ಕಾಃ ವನಿಜಃ ಭಿಷಜಃ ಶಿಲ್ಪಿನಃ ಕುವಿಂದಾ ಚರ್ಮಕಾರಾಃ ಸರ್ವೇ ಅಪಿ ಧರ್ಮಾನುಸಾರೇಣ ನಿಜ ಕರ್ಮಾಣಿ ನಿರ್ವಾಜ್ಯ ನಿರ್ವ್ಯಾಜಂ ನಿರ್ವಹಂತಿ ಸ್ಮ. ಅತ ಏವ ಸರ್ವಸಂಪದಾ ಅನುಗೃಹೀತಂ ಆಸೀತ್ ತತ್ ರಾಜ್ಯಂ. ಸರಿತಃ ಸರಾಂಸಿ ಚ ಜಲಪೂರ್ಣಾನಿ ಭವಂತಿ ಸ್ಮ. ಫಲಪೂರ್ಣೇಷು ಶಾಖಿಷು ಪಕ್ಷಿಣಃ ಮಹತ್ಯಾ ಮುದಾ ವಿಹರಂತಿ ಸ್ಮ. ಸರ್ವದಿಶಃ ಅಪಿ ಜನಾಃ ತತ್ ರಾಜ್ಯಂ ಆಗಚ್ಛಂತಿ ಸ್ಮ. ತೇ ತತ್ರ ರಮ್ಯಾನಿ ಭವನಾನಿ ನಿರ್ಮಾಯ ತೃಪ್ತ ಮನಸಾ ನಿವಸಂತಿ ಸ್ಮ.
ಹಾ, ಧನ್ಯವಾದ ಮಹೋದಯ. ಹಾ ಅಸ್ತು. ತತ್ರ ಕೇವಲಂ ತತ್ರ ಅಭ್ಯಾಸಾರ್ಥಂ ತತ್ರ ರಾಜ ಅಸ್ತಿ, ರಾಜ ಇತಿ ಪ್ರಥಮ ವಿಭಕ್ತೌ ಅಸ್ತಿ. ತತ್ರ ದ್ವಿವಚನೆ ಬಹುವಚನೆ ಕಿಂ ಅಸ್ತಿ ಮಹೋದಯ, ನರೇಶ್ ಮಹೋದಯ?
ರಾಜಾನಃ
ಇತಿ ಅಸ್ತಿ. ಸಮೀಚೀನಂ. ಅಗ್ರೆ ತತ್ರ ವಣಿಜ ಇತಿ ಅಸ್ತಿ. ತತ್ರ ರಘುವೀರ ಸ್ವಾಮಿ, ತತ್ರ ವಣಿಜ ಇತಿ ಬಹುವಚನೆ ಅಸ್ತಿ ವಾ ವಚನ ಕಿಂ ತಸ್ ವಣಿಜ ಇತಿ ಪದಸ್ಯ?
ಬಹುವಚನ ಮನ್ಯ ಮಹೋದಯ.
ಸಮೀಚೀನಂ. ಬಹುವಚನ ಸಮೀಚೀನಂ. ತತ್ರ ಏಕವಚನೆ ದ್ವಿವಚನೆ ಕಿಂ ಭವತಿ? ಸಮೀಚೀನ ಮಹೋದಯ. ಹಾ ಸಮೀಚೀನ. ತತ್ರ ಕಕಾರ ಅಸ್ತಿ. ಸಮೀಚೀನ ಮಹೋದಯ. ಹಾ ತಾವತ್ತೇವ. ತತ್ರ ಇತಿ ತತ್ರ ವಯಂ ಜಾನೀಮಃ ತತ್ರ ಹಲಂತಪದಾನಾಂ ತತ್ರ ಪ್ರಾತಿಪದಿಕಸ್ಯ ಅಂತಃ ವರ್ಣಃ ಬಹುವಚನೆ ಏವ ದೃಶ್ಯತೆ ಇತಿ. ಅತಃ ತತ್ರ ವಣಿಜಃ ಜಕಾರಂತಪದಂ, ಕಿಂತು ಏಕವಚನೆ ವಣಿಕ್ ಇತಿ ಭವತಿ. ಸಮೀಚೀನಂ. ಅಗ್ರೆ ತತ್ರ ರಘುಪತಿ ಮಹೋದಯ, ತತ್ರ ಶಿಲ್ಪಿನಃ ಇತಿ ಪದಸ್ಯ
ನಕಾರಾಂತ ಪುಲ್ಲಿಂಗ ಶಬ್ದ ಅಸ್ತಿ. ಬಹುವಚನ ಶಿಲ್ಪಿನ್ ಶಿಲ್ಪಿ ಶಿಲ್ಪಿನೌ ಶಿಲ್ಪಿನಃ ಇತಿ.
ಹಾ ಶಿಲ್ಪಿ ಶಿಲ್ಪಿನೌ ಶಿಲ್ಪಿನಃ. ಸಮೀಚೀನಂ. ಶುಭದಾ ಭಗಿನಿ ನಮಸ್ಕಾರ.
ನಮಸ್ಕಾರ ಮಹೋದಯ.
ನಮಸ್ಕಾರ ಭಗಿನಿ. ಪೇಜ್ 32 ಮಧ್ಯೆ ಸ್ಮಃ.
ಹಾ
ತತ್ರ ಪಕ್ಷಿಣಃ ಇತಿ ಅಸ್ತಿ. ತತ್ರ ವಚನ ಕಿಂ ಪಕ್ಷಿಣಃ?
पक्षिणः प्रथमाविभक्ति बहुवचन
समीचीनं तत्र एकवचने द्विवचने किं भवति
पक्षी पक्षिणौ पक्षिणः
हा समीचीनम् अस्तु हा तत्र हलन्तपदानां प्रथमाविभक्ति द्वितीयविभक्ति तत्रैव क्लेशः तदनन्तरं बहु सुलभम् अस्ति हा अस्तु इदानीं तत्र अग्रे गच्छामः तत्र गतवर्गे वयम् एतत् परिच्छेद एतं परिच्छेदं पठितवन्तः कोऽपि संशयः अस्ति वा परिच्छेदे अस्मिन् परिच्छेदे नो चेत् अग्रे गच्छामः तत्र इदानीं रघुवीरानन्द महोदय तत्र अतः कदाचित् इति तत् आरभ्य पठति वा
अथ कदाचित् शत्रुः युद्धार्थम् आगतवान् अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः अभवत् सः मन्त्रिणा साकं कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान् कण्टकयुक्तेषु पथिषु अश्मसु वा पादरक्षां विना सञ्चरितुम् अक्ष्मः अक्षमः सः क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान् घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत् भोः मन्त्रिण मम राज्यं नष्टं सर्वाः सम्पदः नष्टाः महत् कष्टम् आपतितम् इतः परम् अहं जीवितुं न इच्छामि कथमपि मरिष्यामि एव इति
समीचीनं धन्यवादः महोदय अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र तत्र उपविष्टवान् पर्यन्तम्
उपविष्टवान् पर्यन्तम् अस्तु
तृतीय
एवं स्थिते कदाचित् अस्तु शत्रुः युद्धार्थम् आगतवान् आगतवान् इति अस्ति युद्धार्थम् आगतवान् आगतवान् अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः अभवत् युद्धे राजा पराजयम् अनुभूतवान्
तत्र
पराजितः अभवत् पराजितः इति अस्ति कर्मणि प्रयोगे अस्ति
राजा पराजितः अभवत्
कर्तृत्वे अस्ति खलु युद्धे अयं राजा पराजितः अभवत्
पराजितः अभवत् लक्ष्मी भगिनी नमस्कारः हा सः
नमस्कारः
नमस्कारः भगिनि
राजा पराजितः
अभवत् युद्धे राजा पराजितः अभवत् तत्र प्रायशः कर्मणि नास्ति
कर्मणि नास्ति
तत्र कर्मणि अस्ति चेत् तत्र राज्ञा पराजितं पराजितं प्राप्तम् इति किमपि रूपम्
आमां पराजितं सः मन्त्रिणा साकं कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान् सः वनं प्राप्तवान् केन सह मन्त्रिणा सह
तत्र साकमिति पदमस्ति चेत् तत्र सः इति अर्थे एव अस्ति
सः एव अस्ति मन्त्रिणा सह
तृतीयविभक्ति चेत्
तृतीया नगरं त्यक्त्वा वनं प्राप्तवान्
किञ्चन वनं इति अस्ति किञ्चन इति
वनम् इत्यस्य विशेषणमस्ति
किं योगः चन
चन
किञ्चन वनं प्राप्तवान् तत्र विभक्ति का
किञ्चित् वनं प्राप्तवान् इति प्राप्तवान् इति कर्मपदं क्रियापदमस्ति तत् कर्मपदमस्ति वनं प्राप्तवान्
द्वितीयविभक्ति समीचीनं तत्र सः मन्त्रिणा सह कथञ्चित् नगरं परित्यज्य त्यक्त्वा किञ्चन वनं प्राप्तवान् समीचीनं महोदय अग्रे एकनिमिषं महोदय अस्तु 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 तत्र
कोऽपि अन्म्यूट् कृतवान्
कण्टकयुक्तेषु पतिषु अश्मसु वा पादरक्षां विना सञ्चलितुम् अक्षमः सः श्रुतया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान्
अत्र अवगमनं भवति, किन्तु वाक्यं दीर्घं वाक्यम् अस्ति इति कृत्वा तत्र खण्डशः पश्यामः.
आमाम्, उपविष्टवान् उपविष्टवान् अस्ति, राजा उपविष्टवान् कुत्र? तीरे, कस्य तीरे? सरसः तीरे उपविष्टवान्. कीदृश राजा? पीडितः राजा. केन पीडितः? पिपासया क्षुधया पीडितः. इदानीम् अक्षम, कीदृशराजा? पुनः अक्षमः राजः. पुनः सञ्चलितुम् अक्षमः, किं कर्तुम् अक्षमः? सञ्चलितुम् अक्षमः. पादरक्ष किमर्थं सञ्चलितुम् अक्षमः? सः कण्टकयुक्तेषु पतिषु अश्मसु पादरक्षां विना सञ्चलितुम् अक्षमः. कुत्र? कण्टकयुक्तेषु पतिषु अश्मसु वा इति. पतिषु इति अस्ति कण्टकयुक्तेषु कण्टकयुक्तमार्गे. अपि च पतिषु इति बहुवचने, बहुवचने पथिन् इत्यस्य पतिषु अश्मसु
अस्ति तत्र.
अस्मसु पादरक्षां विना सञ्चलितुम् अक्षमः स क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान् इति अस्ति.
तत्र सर्वे अवगच्छन्ति इति मन्ये खलु, किन्तु तत्र दीर्घवाक्यम् अस्ति. तत्र तत्र सः किं कर्तुं न शक्नोति एषः राजा?
चलितुं न शक्तवान्. कुत्र? मार्गे कण्टकयुक्तमार्गे अथवा कण्टकयुक्तमार्गे अश्मसु.
कण्टक इत्युक्ते तार्न् इति. तत्र कण्टकयुक्तेषु, अतः तत्र कण्टकयुक्तेषु मार्गेषु अपि अश्मसु. तत्र कण्टकयुक्तः
युक्तः पतिन्
पतिन् इति. तत्र पन्ताः इति प्रथमविभक्ति एकवचनरूपं दृष्टवन्तः खलु, पन्ताः इति. तत्र कण्टकयुक्तः पन्ताः इति अपि तत्र
विशेषणम्
अश्मसु. अश्मसु एकाकी एव अस्ति तत्र विशेषणं
शिलाखण्डेषु
केवलं शिलाखण्डाः सन्ति तत्र इति. अतः मार्गे शिलाखण्डाः सन्ति इति कृत्वा तत्र पादरक्षं विना चलितुं कष्टः भवति इति कृत्वा सः एतत् तत्र सञ्चलितुं तस्य शक्तिः राज्ञः शक्तिः नासीत्. अतः सः राजा अक्षमः सञ्चलितुम् अक्षमः अभवत्. एतादृशराजा सः किं कृतवान्? सः
तीरे उपविष्टवान्.
सरसः तीरे उपविष्टवान्. सरस् इति तत्र कस्यचित् सरसः इति अस्ति, अतः सरस् इति सकारान्त प्रायशः नपुंसकलिङ्गपदं कस्यचित् इति अस्ति.
कस्यचित्
सरस् सरसि सरांसि खलु पूर्वं
दृष्टवन्तः.
अतः कस्यचित् सरसः तत्र
षष्टिः तीरे भवति.
तत्र तीरे उपविष्टवान्. तत्र पीडितः, तत्र क्षुधया पीडितः पिपासयापि पीडितः आसीत् एषः राजा. अतः सः क्षुधया पिपासया च पीडितः सरसः तीरे उपविष्टवान् इति. अस्तु, समीचीनं महोदय. अग्रे शुभदा भगिनी.
आं महोदय.
घोरायाम् इति.
घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत्.
एकवारं पठतु, एकवारं तत्र अन्तपर्यन्तं पठतु, तदनन्तरं खण्डखण्डशः पश्यामः.
अस्तु महोदय. भोः मन्त्रिन्, मम राज्यं नष्टं, सर्वाः सम्पदः नष्टाः, महत् कष्टम् आपतितं, इतः परम् अहं जीवितुं न इच्छामि, कथमपि मरिष्यामि एव इति.
इदानीं तत्र घोरायाम् आपदि अपि तत्र अनुगतं मन्त्रिणं तावत्पर्यन्तं किम् अस्ति इति.
घोरायाम् आपदि, आपदि इति आपद् आपद् इति दकारान्तस्त्रीलिङ्गशब्दः. तस्य षष्ठी बहुवचन
आपदि,
सप्तमी बहुवचन
एकवचन,
सप्तमी एकवचन
आपत्सु इति प्रायशः बहुवचनं.
घोरायाम् आपदि, घोरा आपदि, अतः घोरायाम् इति
समीचीनं. तत्र लता पदव
विशेष
लता लतायां
विशेषण विशेष्यः विशेष्यभावः अस्ति. अतः आपदि इति सप्तमी एकवचन अस्ति, अतः घोरा इति शब्दस्य अपि सप्तमी एकवचन भवति. घोरायाम् आपदि अपि आत्मनः हितम्, आत्मनः इति षष्टि एकवचन भवति. आत्मनः हितम् इत्युक्ते स्वस्य हितं, हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा.
इदानीं तत्र तत्र अग्रे किं कुर्मः, तं दृष्ट्वा इति वदामः, अग्रिमखण्डं तं दृष्ट्वा इति वदामः. किन्तु इदानीं तत्र परित्यज्य अनुगतः इति वदामश्चेत् तत्र दृष्ट्वा इति अस्ति, अतः द्वितीयविभक्तिरूपम् अस्ति, अनुगतं मन्त्रिणं दृष्ट्वा इति. तत्र प्रथमाविभक्ति स्थापयामः चेत् अनुगतः मन्त्री, अतः मन्त्री अनुगतः अस्ति. अनुगतः इत्युक्ते तत्र राजा
गतवान्,
राजा गतवान्, मन्त्री अनुगच्छति, मन्त्री अनुगच्छति,
अनुसृत्य
फालोविङ्ग् इति. सः एव क्रिया, या क्रिया राजा करोति, या क्रिया राज्ञः, सा एव क्रिया मन्त्रिणः अपि. किन्तु एक प्रथमक्रियायाः अनन्तरं समाना क्रिया तस्य अनन्तरम्, अतः तत्र अनु इति भवति. अतः अनुगतम् अत्र राजा गतवान्, इदानीं तत्र मन्त्री अपि अनुगतवान्. इदानीं तत्र अनुगतः अस्ति मन्त्री. एषः मन्त्री किं त्यक्त्वा अनुगतः अस्ति?
आत्मनः हितं परित्यज्य,
आत्मनः हितं परित्यज्य स्वस्य
हितं
परित्यज्य इत्युक्ते यथा वयं तत्र पूर्व तत्र सत्यजितः कथायामपि तत्र एतदासीत् खलु, तत्र दौर्बल्यं, एतादृश तत्र स्वस्य आपदः काठिन्यम् इति तत्र आत्मनः हितं वा चिन्तयामः तर्हि पश्चात् तत्र एतद्रूपं पूर्वमपि आगतम् अस्ति. तत्र आत्मनः हितं परित्यज्य इत्युक्ते तत् त्यक्त्वा, यदि तस्मिन् विषये सः चिन्तनं कृतवान्, यत् कृतवान् सः न करोति, अन्यत् कृतवान्, अतः आत्मनः हितं त्यक्त्वा एषः अनुगतः, एषः अनुगच्छति, मन्त्री अनुगच्छति. यदि स्वस्य हितं सः तस्मिन् विषये सः चिन्तितवान्, सः प्रायशः न अनुगच्छति, तत्र तस्य पूर्व आत्मनः हितं परित्यज्य अनुगतः मन्त्री. इदानीं तत्र घोरायाम् आपदि अपि इति अस्ति, तत्र अपि इत्युक्ते किम्?
अपि इति also like
अपि इति also इति even though इति तत्र आपद साधारण आपद इति न, घोरा आपद अस्ति तत्र. किन्तु तस्मिन् सन्दर्भे अपि एषः मन्त्री अनुगतवान्, स्वस्य चिन्तनं न कृत्वा सः राज्ञम् अनुसृत्य आगतवान् अस्ति एषः मन्त्री इति. इदानीं तत्र अस्तु, एतावत् तत्र अनुगतः मन्त्री. इदानीं तम् अनुगतं मन्त्रिणं दृष्ट्वा
अश्रूणि मुञ्चन् सः अवदत्. अश्रूणि राजा अवदत् अश्रूणि इति अश्रूणि मुञ्चन् इति अश्रु इति अश्रूणि ओके
अश्रूणि इत्युक्ते टियर्स् इति
टियर्स्
मुञ्चन् मुञ्चन् तत्र शत्रन्तरूपम्
अश्रु इति अश्रुः इति अश्रूणि कर्मकर्मणि कर्माणि वत्वा
तादृशमेव अस्ति इति मन्ये. अश्रु अश्रूणि अश्रूणि
अश्रुन् इति नपुंसकलिङ्गे नकारान्तशब्दः अतः अश्रु अश्रूणि अश्रु अश्रूणि अश्रूणि अश्रूणि
प्रायशः तदपि तत्र किं यथा तत्र मन्त्रिणम् अस्ति तादृश एव अत्रापि तत्र बोल्ड् मध्ये करणीयमासीत् इति मन्ये. हा अश्रूणि हा
मुञ्चन् सः
मुञ्चन्
सः अवदत् भोः मन्त्रिन् मन्त्रिन् इति सम्बोधन् मम राज्यं नष्टम् इत्युक्ते मम राज्यं नष्टः अभवत् मम राज्यं नष्टम् अभवत् अभवत् आवरणे अस्ति सर्वाः सम्पदः नष्टाः इत्युक्ते सम्पत् इति स्त्रीलिङ्गपदं दकारात् स्त्रीलिङ्गपदम् इत्युक्ते सम्पदः इति प्रथमाविभक्ति बहुवचन् सर्वाः इति सम्पदा सम्पत् इति शब्दस्य विशेषणः इत्युक्ते सर्वाः प्रथमाविभक्ति बहुवचन् सम्पदः अपि प्रथमाविभक्ति विशेषणविशेष्यभावः
नष्टाः अपि तदपि तत्र
विशेषण
एकवचने किं भवति तत्र
सम्पदः इति
तत्र सर्वा नष्टा इदानीं तत्र सर्वाः सम्पदः नष्टाः सन्ति
महत् कष्टम् आपतितं महत् कष्टम् इति वनं वत् इत्युक्ते प्रथमपुरुष
नपुंसकलिङ्गपदं
प्रथमाविभक्ति एकवचन महत् 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 इति शब्दस्य विस्मृतवती
जानाति वा वदति वा तत्र महत् इति पदस्य
नपुंसकलिङ्गपदं
महत् कष्टम् इति अस्ति नपुंसकलिङ्गमस्ति
किन्तु तत्र द्विवचने बहुवचने रूपं किं भवति
महती महन्ति
तत्र पठत् पठति पठन्ति महत् महति तत्र शत्रन्तरूपं यावत् अस्ति तादृश अस्ति इति मन्ये तत्र पठन् इति तत्र पुल्लिङ्गे भवति खलु शत्रन्तरूपं तत्र मुञ्चन् इति आसीत् तत् पुल्लिङ्गरूपम् अस्ति किन्तु प्रातिपदिकम् अस्ति मुञ्चत् इति मुञ्चन् इति पुल्लिङ्गरूपं मुञ्चन्ती इति स्त्रीलिङ्गरूपं किन्तु मुञ्चत् मुञ्चति मुञ्चन्ति पठत् पठति पठन्ति अतः महत् महति महन्ति हा पुल्लिङ्गे किमस्ति महत् इति प्रातिपदिकं किन्तु प्रथमविभक्तिरूपं किम् अस्ति भवत् भवान् भवति महत् महान् भवति
महान्
महान्तौ महान्तः अपि स्त्रीलिङ्गे महती
नदीवत् महती नदी नद्यौ नद्यः
महती महत्यौ
महत्यः
इति
इतः परं
रघुपतिमहोदय धन्यवादः अस्तु महत् कष्टम् आपतितं समीचीनं भगिनी अग्रे
इतः परम् अहं जीवितुं न इच्छामि इतः परम्
अस्मिन् सन्दर्भे
अग्रे
अग्रे अहं न
जीवितुं न इच्छामि
इच्छामि
कथमपि मरिष्यामि एव
तत्र विकल्पः नास्ति अहं मरिष्यामि न वा इति कोऽपि सन्देहः मास्तु अहं मरिष्यामि एव इति सः वदति तत्र कोऽपि विकल्पः नास्ति सन्देहः नास्ति अहं निश्चयेन मरिष्यामि इति सः चिन्तयति अस्तु समीचीनं धन्यवादः भगिनि लक्ष्मी भगिनि जानाति वा वयं कुत्र स्मः इति
महोदय
हा अस्तु अग्रे पठति वा भगिनि
पठानि वा दीनं 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 विलपन्तं राजानं दृष्ट्वा मन्त्री तं सान्त्वयन् उक्तवान् राजन् अलं दुःखेन राज्यं विनष्टम् इति भवान् मा चिन्तयतु अग्रे
पठतु तत्र भगिनि चिन्तयाम इति चिन्तयाम तावत्पर्यन्तं पठतु
धीमन्तः गते शोकं न कुर्वन्ति ते वर्तमानम् एव चिन्तयन्ति दीनं विलपन्तं राजानं
न अग्रे ओ क्षम्यतां भगिनि तत्र चिन्तयाव इति परिश्रमेण अग्रिम पङ्क्ति अपि
परिश्रमेण कर्मणा च ते
अभीष्टं
साधयन्ति अतः भवान् दुःखार्तः मा भवतु विनष्टस्य राज्यस्य पुनःप्राप्तये उपायं चिन्तयाव
हा इदानीं तावत्पर्यन्तं भगिनि समीचीनम् अस्तु हा इदानीं तत्र दीनं
विलपन्तं राजानं दीनं विलपन्तं
हा तत्र राजानम् इति अस्ति समीचीनं भगिनि राजानम् इति दृष्ट्वा
द्वितीयविभक्ति
हा राजा
विलपन्तं राजानम्
तत्र राजानम् इति राजानम् इति अस्ति तत्र
द्वितीयविभक्ति
एकवचनं समीचीनं दीनं
दृष्ट्वा
दीनः राजा दीनः राजा दीनः राजा तस्य दीनं राजानम् इदानीं तत्र विलपन्तम् अस्ति तदपि द्वितीयविभक्ति वदतु भगिनि हा विलपन् विलपन् नकारान्तपदं
तस्य द्वितीयविभक्ति विलपन्तम्
हा इदानीं
विलपन्तं राजानम्
इदानीं तत्र विलपन्तम् इति एकवचनं अस्ति विशेषणम् अस्ति विलपन् इति प्रथमविभक्तिरूपम् अस्ति समीचीनं तत्र विलपन् इति एकवचने प्रथमविभक्ति द्विवचने किम् अस्ति विलपन् विलपन् इति एकवचने
विलपन् विलपन्तौ विलपन्तः
हा समीचीनं समीचीनं
विलपन्तौ विलपन्तः
प्रायशः विलपतः इति
प्रायशः
इति समीचीनं भगिनि हा समीचीनं हा दृष्ट्वा दृष्ट्वा
मन्त्री
तस्य समाधानं हा तत्र तदपि
सान्त्वयन्
उक्तवान् हा तत् कर्तुं हा तत्र तस्य समाधानं सान्त्वयति इति हा तस्य समाधानं कर्तुं समाधानं कर्तुं तं सान्त्वयन् उक्तवान् हा
राजन् अलं दुःखेन
हा तत्र वयं जानीमः अलं यत्र अलम् अस्ति चेत् तत्र
उपपदविभक्ति
अलं दुःखेन समीचीनं हा
राज्यं विनष्टम् इति भवान् मा चिन्तयतु भवान् मा चिन्तयतु
तादृशचिन्तनं मास्तु
धीमन्तः गते शोकं न कुर्वन्ति
कीदृशरूपवचने
धीमान् धीमन्तौ धीमन्तः
हा धीमन्तः धीमन्तः इत्युक्ते तत्र धीमान् शक्तिमान् नीतिमान् तत्र बुद्धिमान् तत्र यस्मिन् यस्मिन् हा यस्मिन् यस्य वा इति रूपमस्ति हा धीमः तत्र धीमः इति धैर्यवान् इति प्रायशः
अस्ति वा महोदय
हा धी इति मन्ये
यस्मिन्
धी अस्ति सः धीमान् हा धीमान् हा धैर्यम् इति अर्थे हा धैर्यवान्
गते शोकं न कुर्वन्ति
गते इति गते तत्र न
नास्ति वा सति सत्यं वा गते गतावत्ते
तस्मिन् विषये कस्मिन् विषये शोकं कस्मिन् विषये शोकं गते विषये शोकं न कुर्वन्ति हा तावदेव तत्र यत् अभवत् तस्मिन् विषये शोकं
न कुर्वन्ति
हा गतं तु गतम् इति ते चिन्तनं चिन्तयन्ति हा गते इति सप्तमी एकवचनं शोकं न कुर्वन्ति तस्मिन् विषये
ते वर्तमानम् एव चिन्तयन्ति
वर्तमानस्य विषये एव चिन्तयन्ति ते धीमन्तः वर्तमानम् एव चिन्तयन्ति
परिश्रमेण कर्मणा च ते अभीष्टं साधयन्ति
हा तत्र च नास्ति किन्तु ते ते इत्युक्ते के
ते धीमन्तः
हा ते धीमन्तः अभीष्टं साधयन्ति अभीष्टम् इत्युक्ते यत् इच्छन्ति तत् साधयन्ति इच्छन्ति यत् इच्छन्ति तद् अभीष्टम् अस्ति एतत् कर्तुम् इच्छामि तत् अभीष्टं तत् साधयन्ति कथं साधयन्ति अथवा केन साधयन्ति ते
कर्मणा
हा कीदृशकर्मणा
परिश्रमेण
हा परिश्रमेण कर्मणा
च ते अभीष्टं साधयन्ति
हा तत्र च इति नास्ति खलु नो चेत् तत्र परिश्रमेण कर्मणा च इति अस्ति चेत् तत्र सम्बन्धः नास्ति इति चिन्तयितुं शक्नुमः किन्तु तत्र परिश्रमेण कर्मणा इति एव अस्ति अतः तत्र कर्म कीदृशं परिश्रमं कर्म इति प्रायशः परिश्रमयुक्तकर्म तेन ते अभीष्टं साधयन्ति
अतः भवान् दुःखार्थः मा भवतु
हा दुःखितः मा भवतु
विनष्टस्य राज्यस्य पुनः प्राप्तये उपायं चिन्तयाव
चिन्तयाव इति वयं चिन्तयाव कस्य तत्र उपायं चिन्तयाव प्राप्तये इति अस्ति प्राप्तये इति रूपं
पुनः प्राप्तये पुनः प्राप्तुं राज्यं पुनः राज्यं विनष्टम् अभवत् अतः
राज्यस्य राज्यस्य
प्राप्तुं
उपायं चिन्तयावः चिन्तयावः किन्तु तत्र चिन्तयाव इति लकारः कः
चिन्तयावः
इति नास्ति चिन्तयावः लोट् लकारः समीचीनं द्विवचनम्
उत्तमपुरुषद्विवचनं
समीचीनम् इदानीं केवलं तत्र प्राप्तये इति तत्र प्रथमविभक्तिरूपं किम् अस्ति कीदृशपदं प्राप्तये इति
प्राप्तिः
हा स्त्रीलिङ्ग मतिपदवत् हा प्राप्तिः इति स्त्रीलिङ्ग प्राप्तिः अस्ति तत्र प्राप्तये इति चतुर्थीविभक्तिरूपं तत् कर्तुं तदर्थं तत्र तत्र प्राप्तये तत् तत् आवश्यकं तदर्थम् इति तत्र चतुर्थी भवति खलु किमर्थम् एतत् उपायम् उपायं किं कर्तुं
प्राप्ते
प्राप्ते चतुर्थीरूपं तत्र अस्ति. समीचीनं भगिनि, धन्यवादः. सूर्यकुमारी भगिनी नमस्कारः, शीतल भगिनी नमस्कारः. अस्तु अस्तु, चिन्ता मास्तु भगिनि. हा, तत्र पेज् 32-33 मध्ये स्मः, गीतास्वपने द्वितीयभागे. शीतल भगिनी नमस्कारः.
नमस्कारः
महोदय. नमस्कारः भगिनि, तत्र पुस्तकमस्ति वा भगिनी भवत्याः पार्श्वे?
अत्र
गीतासोपन द्वितीयभागः
अत्र नास्ति, हास्पिटल् अस्ति.
भवती हास्पिटल् मध्ये अस्ति वा? ओ, क्षम्यतां भगिनि. किन्तु तत्र केवलं शृणोति वा भवती? अस्तु 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 अस्तु, अतः द्रष्टुं शक्नोति चेत् 32-33 अस्तु भगिनि. तत्र न विकम्पितुम् अर्हसि, इदानीं द्वितीयपुटम्. अस्तु अस्तु, अग्रे सूर्यकुमारी भगिनी. अस्तु भगिनि, सूर्यकुमारी पठति, तदनन्तरं भवती पठतु.
यः अस्माकं शत्रुः राजा अस्ति, तस्यापि वैरिणः वर्तन्ते.
तत्र तत्र यत् पूर्णपरिच्छेदं पठतु तत्र इति पर्यन्तं.
शत्रुः राजा विशेषणविशेषं तस्यापि वैरिणः.
सूर्यकुमारी भगिनि, एकवारं तत्र यः इति आरभ्य इति पर्यन्तम् एकवारं पठतु. चिन्तां मा करोतु इति, तावत् पर्यन्तम् एकवारं पठतु.
राजा अस्ति, तस्यापि वैरिणः वर्तन्ते. तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः. नष्टं राज्यं पुनः न लप्स्यते इति कः अत्र निश्चयः? भगवतः कृपया भगवतः कृपया भवान् राज्यं सम्पदः यशश्च विना विलम्बं प्राप्स्यति. चिन्तां मा करोतु इति.
इदानीं यः अस्माकं शत्रुः राजा अस्ति,
तस्यापि वैरिणः वर्तन्ते. राजा अस्ति, तस्य अपि
वैरिणः इत्युक्ते
वैरिणः विरोधाः
शत्रुः इति हरिः हरिः इति जानाति खलु हरिः हरिः इति हरिः हरि अरयः. अत्र किम् अस्ति? वैरिणः इति अस्ति, एकवचने रूपं किम्?
वैरिणी
न, वैरिणः इति अस्ति.
वैरी
वैरिणी न वैरिणौ इति
वैरी
गुणिनौ गुणिनः वैरी वैरिणौ वैरिणः. तत्र यः अस्माकं शत्रुः राजा अस्ति, यः युद्धार्थम् आगतवान् सः शत्रु राजा यः अस्ति, तस्य इदानीं तत्र तस्य अपि वैरिणः वर्तन्ते. तत्र तस्य इति स्थाने इदानीं राजा इति पदस्य षष्टिविभक्ति किम् अस्ति?
राज्ञः.
तस्य राज्ञः अपि वैरिणः वर्तन्ते. इदानीं तत्र कीदृशः राजा सः? शत्रुः राजा.
शत्रुः राजा.
इदानीं तस्य शत्रुः इति पदस्य षष्टि किम्?
शत्रुः
गुरुः.
शत्रोः.
अतः तत्र तस्य शत्रोः राज्ञः अपि वैरिणः
वर्तन्ते.
अग्रे
तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः.
हा तत्र सत्यं विधाय इत्युक्ते किं
स्नेहं
हा तत्र मित्रं मित्रत्वं मित्रत्वं दत्त्वा दत्त्वा विधाय
युद्धं करिष्यामः
हा तैः वैरिभिः तत्र वैरिणः सन्ति राज्ञः वैरिणः ये सन्ति तैः वैरिभिः वयं
सख्यं
विधाय इत्युक्ते
सख्यं
तेषां तेषाम् इदानीं वैरिभिः इति तत्र वैरी इति अस्ति तत्र वैरी वैरिणौ वैरिणः इति प्रथमविभक्तिरूपम् अस्ति इदानीं तत्र षष्ठी विभक्ति किमस्ति शत्रुः शत्रोः किन्तु वैरी इति गुणी गुणिनौ गुणिनः वैरिणः बहु किन्तु इदानीं बहुवचनं वैरिणः इति प्रथमविभक्ति बहुवचनरूपम् इदानीं षष्ठीविभक्ति बहुवचनरूपं किम् अस्ति
वैरीणां भवति कवीनां कवि
प्रायश
वैरीणां
न वैरेः किमर्थं वैरेः एतत् नकारान्तपदं महोदय वैरिन् वैरिन् अतः वैरिणः इति अस्ति अतः वैरिणां वैरिणां
वैरिणां
वैरिणां तत्र किं किमर्थं तत्र वैरिणाम् इति चिन्तनं तत्र तैः वैरिभिः सख्यं विधाय अतः तत्र तेषां वैरिणां मित्रं
मित्रं
भूत्वा मित्रं भूत्वा
युद्धं
राजा पुनरपि युद्धं कर्तुं शक्नोति युद्धं कर्तुं शक्नोति इति मन्त्री
चिन्तयति
अतः वयं करिष्यामः वयं पुनः युद्धं करिष्यामः तैः वैरिभिः पुनः युद्धं करिष्यामः इदानीम् एकाकी राजा एकाकी अस्ति एकाकी एकाकिनौ एकाकिनः एकाकिन् इति तत्रापि तदपि हलन्तपदम् इदानीं राजा एकाकी अस्ति किन्तु तैः वैरिभिः सः एकाकी न भवति अतः तत्र यदि युद्धं करोति तत्र प्रायशः तत्र तस्य पराजयः न भवति इति हा इदानीं तत्र अग्रे भगिनि
नष्टं राज्यं पुनः न लप्स्यते इति कः
अत्र
अत्र निश्चयः
निश्चयः इत्युक्ते
कः
निश्चयः इत्युक्ते किं निश्चयः इत्युक्ते किं
स्पष्टं
न स्पष्टं न निश्चयः इत्युक्ते यत्र सन्देहः नास्ति तत् सः निश्चयः खलु एतत् पुस्तकम् अस्ति वा इत्युक्ते आमाम् एतत् पुस्तकमेव अस्ति सः निश्चयः खलु तत्र कोऽपि सन्देहः नास्ति किन्तु एतत् पुस्तकं वा शिलाखण्डं वा इति न जानामि चेत् तत्र संशयः अस्ति निश्चयः नास्ति यत्र संशयः नास्ति सः निश्चयः अत्र कः निश्चयः इत्युक्ते कस्मिन् विषये निश्चयः तत्र नष्टं राज्यं पुनः न लप्स्यते इति कः अत्र निश्चयः तत्र राज्यं नष्टं खलु राज्यं नष्टम् इदानीं राज्ञः राज्यम् इदानीं तस्य पार्श्वे नास्ति खलु शत्रोः राज्यम् अभवत् इदानीं तद् नष्टं राज्यं पुनः न लप्स्यते इति कः अत्र निश्चयः हा इदानीं तत्र कः अत्र निश्चयः त्यजामः तत्र लप्स्यते इत्युक्ते किं रूपं किं लप्स्यते लुट्लकारः किन्तु तत्र लट्लकाररूपं किम् अस्ति लप्स्यते इति
लभते
हा समीचीनं भगिनि लभते लप्स्यते अतः तत्र नष्टं राज्यं पुनः न लभ्यते इति कः अत्र निश्चयः राज्यं
निश्चयः
तत्र राज्यं न प्राप्तुं शक्नुमः इति कोऽपि वक्तुं शक्नोति वा? न शक्नोति. अतः प्रायशः तत्र अवकाशः अस्ति इति चिन्तनं कर्तव्यम् इति. नष्टं राज्यं पुनः न लप्स्यते इति कः अत्र निश्चयः? न लप्स्यते इति निश्चयेन वक्तुं न शक्नुमः खलु. अतः युद्धं कर्तुं युद्धस्य चिन्तनं समीचीनम् इति. हा, अग्रे.
भगवतः कृपया भवान् राज्यं सम्पदः यशश्च विना विलम्बं प्राप्स्यति.
तत्र भगवतः इति किमस्ति?
भगवतः भगवान् भगवन्तौ भगवन् भगवतः
भगवान् भगवन्तौ भगवन्तः इदानीं भगवतः इति अस्ति तत्र कृपया कृपया इति अस्ति भगवतः कृपा
भगवतः देव भगवान्
पदस्य भवतः नाम किं तत्र भवतः इति पदस्य विभक्तिः का
भवतः षष्ठी
अत्रापि भगवतः षष्ठी एव भगवतः कृपा भगवतः कृपया भवान् इत्युक्ते राजा भवान्
राज्यं
सम्पदः यशः च समीचीनं राज्यं सम्पदः इति तत्र सम्पदः विभक्ति तु न किन्तु तत्र वचनं किम् इति चिन्तनं कुर्मः. सम्पदः वचनं किम्?
एकवचनं
न सम्पद् सम्पदौ सम्पदः
सम्पदः
इति बहुवचनं सम्पदः तत् किन्तु तत् प्रथमविभक्तिरूपम् अस्ति किन्तु पश्यामः सम्पदः इति वचनं तु बहुवचनम् इति यशः यशः इति
यशस्
सम्पद् इति दकारान्तपदमेव दकारान्तपद विपद् इति विपद् तादृश सम्पद् इति मन्ये
सम्पद् सम्पदौ सम्पदः
इति इदानीं यशः यशस् इति सकारान्तपदं यशः तत्र यशस् इति सकारान्तनपुंसकलिङ्गपदं मनः मनसि वा मनस् मनसि मनांसि यशः यशसि यशांसि यशः च इदानीं तत्र विना इति अस्ति तत्र विना इत्युक्ते किं तत्र यशः विना वा तत्र यशः च विना इति अस्ति वा
विना विलम्बं
तत्र विना इति तत्र विना तत्र विना न स्थापनीयमस्ति किन्तु भगवतः कृपया भवान् राज्यं सम्पदः यशः च विना विलम्बं प्राप्स्यति विलम्बेन न अतः विना विलम्बं विना विलम्बं प्राप्स्यति प्राप्स्यति पुनः तत्र लकारः कः
प्राप्स्यति
लृट् लकारः भविष्यत्कालरूपं प्राप्स्यति विना विलम्बं प्राप्स्यति किं किं प्राप्स्यति अतः प्राप्स्यति इति अस्ति तत्र अकर्मकक्रियापदं वा सकर्मकक्रियापदम् प्राप्नोति सकर्मक अतः किं प्राप्नोति अथवा किं प्राप्स्यति यशः च प्राप्स्यति अतः कर्मपदं राज्यं कर्मपदं सम्पदः कर्मपदं यशः अपि कर्मपदम् द्वितीयविभक्तिरूपं समीचीनं अस्तु समीचीनं भगिनि धन्यवादः. अस्तु अग्रे शीतल भगिनी पठितुम् इच्छति वा तत्र अन्तिमपरिच्छेदम्
एकः प्रश्नः अस्ति महोदय.
हा वदतु भगिनि शुभदा भगिनी वदतु.
तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः. अस्मिन् वाक्ये तैः वैरिभिः इति तृतीया विभक्ति बहुवचनं खलु. हौ डस् इट् वर्क् हियर् लैक्
तैः तत्र केवलं तत्र सख्यं विधाय त्यजतु इदानीं तैः वैरिभिः युद्धं करिष्यामः इति तत्र किं भवति तत्र तैः वैरिभिः किं भवति तत्र तैः वैरिभिः सह इति चिन्तयतु हा तैः वैरिभिः सह पुनरपि युद्धं करिष्यामः इत्युक्ते वैरिणः अस्माकं वैरिणः न सन्ति किन्तु यः शत्रुः अस्ति तस्य वैरिणः ते सन्ति खलु अतः तत्र तैः वैरिभिः अस्ति चेत् तैः सह
सः शब्दः किमर्थं न
तत्र न दृश्यते तत्तु किन्तु तत्र हा अस्तु तत्र
तैः वैरिभिः सह सख्यं विधाय
न आवश्यकं तेन
किमर्थं
तत्र अस्तु
तत्र सहं विना
सः विना अभ्यासपुस्तके एतत् यदा कुर्मः तत्र बहु क्लेशः भवति सः विना हा सत्यं तत्र प्रायशः तत्र
तैः वैरिभिः सख्यं विधाय
तत्र इदानीं सख्यं विधाय त्यजामः तत्र तैः वैरिभिः युद्धं करिष्यामः तत्र तैः वैरिभिः सह युद्धं करिष्यामः तत्र
सख्यं
तत्र प्रायशः भगिनी तत्र यदि सः अस्ति चेत् तत्र किं भवति तत्र यदि सः अस्ति चेत् तत्र ते अस्माकं पक्षे न सन्ति इति प्रायशः अर्थः भवति इति मन्ये तत्र रामः रावणेन सह युद्धं कृतवान् इति भवति रूपम् अतः सः भवति चेत् तत्र रामस्य पक्षः एकः रावणस्य पक्षः अन्यः किन्तु तत् अत्र न वक्तुम् इच्छामः एते वैरिणः अस्माकं पक्षे ते सन्ति अतः युद्धः यदि तत्र वदामः तत्र युद्धं करिष्यामः तैः वैरिभिः सह इति अतः तत्र ते वस्तुतः वैरिणः भवन्ति
न तैः वैरिभिः सह सख्यं विधाय
न
अत्र अस्माकं रामः भवति अहं चिन्तितवान् षष्ठीभक्ति सम्यक् भवति केषां सख्यं विधाय तेषां वैरीणां सख्यं विधाय वयं युद्धं करिष्यामः इति
भ्रमः
अस्ति अहं सम्यक् न जानामि तैः वैरिभिः
अस्ति
चेत्
अस्तु अस्तु सत्यं तत्र क्लेशः अस्ति किन्तु एकः अंशः अस्ति तत्र सख्यं विधाय इति एकः अंशः द्वितीय अंशः तत्र किमर्थं सः नास्ति इति खलु इदानीं तत्र प्रथम अंशः यः अस्ति तं त्यजामः तत्र सख्यं विधाय इति इदानीं त्यजामः केवलं सः इति किमर्थं तत्र नास्ति इति चिन्तयामः तैः वैरिभिः सह युद्धं करिष्यामः इति तद् वाक्यं स्वीकुर्मः
अहं मन्ये युद्धं करिष्यामः वयं युद्धं करिष्यामः
दत्तं नास्ति अस्तु तद् तदेव वाक्यं स्वीकुर्मः तैः वैरिभिः वयं पुनरपि तदपि त्यजामः तत्र तद् जानीमः किं तस्य तत् किं करोति वाक्ये इति अतः तैः वैरिभिः वयं युद्धं करिष्यामः इदानीं तत्र अतः एकं वाक्यमस्ति तैः वैरिभिः वयं युद्धं करिष्यामः अन्यत् वाक्यमस्ति तैः वैरिभिः सह वयं युद्धं करिष्यामः कः भेदः इति प्रश्नः खलु
कारणं भवति तैः वैरिभिः इति तेषां सहायेन इति
हा अत्र साहाय्येन इति भवति
करणार्थे
हा यदि यदि तत्र सः इति अस्ति चेत् तत्र रामः रावणेन सह युद्धं कृतवान् इति रूपं
खड्गेन खड्गेन युद्धं करिष्यामि तादृशार्थे कारण इति
तादृशं भवति अत्र
करणं करणार्थे
करणार्थे अस्ति अतः तत्र यदि वयं सः स्थापयामः तत्र किं भवति रामः रावणेन सह युद्धं कृतवान् इति अस्ति
बाणेन युद्धं बाणेन
बाणेन युद्धं किन्तु बाणेन अथवा वयं रामः लक्ष्मणेन सह युद्धं कृतवान् इति न वदामः यदि तत्र रामः लक्ष्मणेन सह युद्धं कृतवान् इत्युक्ते तत्र किमर्थं तत्र युद्धं कृतवान् इति एव प्रश्नः भवति
खड्गेन मारितवान्
हा तत्र अतः तत्र तैः वैरिभिः वयं युद्धं करिष्यामः इति तत्र सः इति तत्र नास्ति शुभदा भगिनी इदानीं समीचीनं वा किमर्थं सः इति नास्ति इति
न महोदय
तत्र सः अस्ति चेत् भगिनी तत्र केवलं तत्र प्रायशः नियमः अस्ति किन्तु अहं केवलं एकम् उदाहरणं स्वीकृत्य वदामि तत्र रामः रावणेन सह युद्धं कृतवान् इति तत्तु भवती स्वीकरोति खलु अङ्गीकरोति खलु तत् समीचीनं वाक्यम् इति तत्र रावणेन सह युद्धं कृतवान् इति खलु किन्तु तत्र किं भवति तत्र रामस्य पक्षः अपि रामस्य वैरी अथवा अरिः रावणः अतः यदि वदामः रामः रावणेन सह युद्धं कृतवान् तत्र तयोः मध्ये युद्धं जातम् इति खलु इदानीं तत्र अत्र किं वक्तुम् इच्छामः तत्र एषः राजा यस्मिन् विषये वयम् एतावत् पठितवन्तः एषः राजा अस्ति सः किं कर्तुम् इच्छति सः अन्यः राजा यः अस्ति तं प्रति युद्धं कर्तुम् इच्छति खलु अतः तत्र राजा राजानौ अथवा राजाद्वयं अत्र अस्ति हा राजाद्वयम् अस्ति तत्र राजानौ स्तः अस्माकं राजा अपि अन्यः राजा तत्र अस्माकं राजा अन्यं राजानं प्रति युद्धं कर्तुम् इच्छति एषः राजा किं करोति अन्यस्य राज्ञः वैरिणः ये सन्ति तेषां साहाय्येन युद्धं कर्तुम् इच्छति
सत्यं
हा अतः ते साहाय्यं कर्तुं युद्धे साहाय्यं कर्तुम् आगच्छन्ति ते वैरिणः अन्यराज्ञः वैरिणः अत्र आगच्छन्ति युद्धे साहाय्यं कर्तुं अतः तैः वैरिभिः एषः राजा युद्धं करोति तत्र सः इति नास्ति यदि सः इति स्थापितुम् इच्छामः तत्र तैः वैरिभिः एषः राजा अन्या राज्ञा सह युद्धं करोति इति भवति
अन्य अन्य विधेन अहं वदामि सम्यक् वा तैः वैरिभिः वयं सख्यं कृत्वा
इदानीं सख्यं विधाय इदानीं त्यजतु तत् मास्तु इदानीं तत्र केवलम् इदानीं प्रश्नः केवलम् एषः अस्ति तत्र सः इति भवितव्यं न अथवा न इति प्रश्नः भवत्याः चिन्तनं किम्
वाट् ऐ थाट् इस् अस्य वाक्यस्य भागद्वयम् अस्ति तैः वैरिभिः सख्यं विधाय
त्यजामः न आगच्छति तत्र. अतः तत्र एतदेव तत्र वाक्यस्य तत्र स्थानमपि तस्य परिवर्तनं कृत्वा अपि समानार्थकं भवति इति तत्र अस्ति खलु संस्कृतस्य विशेषण गुणः. अत्र तद् तस्य उपयोगं तत्र विभक्ति दृष्ट्वा वाक्ये तस्य पदस्य किं महत्वम् अथवा तस्य क सम्बन्धः अन्वयः इति तत् सर्वम् अवगन्तुं शक्नुमः. अतः तत्र साख्यं विधाय इति तद् त्यजतु. साख्यं न सख्यं विधाय सख्यं विधाय इति तत् त्यजामः. किन्तु सः इति तत्र मम चिन्तनमस्ति पुनः एकवारं अन्वेषणं करोमि, भवन्तः अपि कुर्वन्तु. तत्र सः अस्ति चेत् तत्र रामः रावणेन सह युद्धं कृतवान्
इति.
सत्यं भगिनि, तदेव
तैः वैरिभिः, दट् इस् एनिमीस् आफ् दो आफ् द राजा हु वन् वित् दोस् पीपल् मेक् सख्यं विधाय पुनरपि युद्धं करिष्यामः.
सो वित् दोस् पीपल् दट् इस् दट् सः
भगिनी यद् उक्तवती तत् समीचीनमेव भाति. वयं युद्धं करिष्यामः, वयं वैरिभिः सख्यं विधाय युद्धं करिष्यामः इति पदद्वयम् अस्ति. अहं चिन्तयामि सः इति भवितुम् अर्हति, परन्तु गौण अस्ति अत्र, वयं तत् अर्धहस्तव्यम् इति अहं चिन्तयामि. वैरिभिः सह सख्यं विधाय, तैः वैरिभिः सह सख्यं विधाय वयं पुनरपि युद्धं करिष्यामः इति भवितुम् अर्हति. तदेव अहं तद् इदानीम्
अस्तु चिन्तनम् अस्तु, अन्वेषणं कुर्मः, अस्मिन् विषये पुनः चर्चां कुर्मः. नरेश् महोदय,
अहं चिन्तयामि तत् सम्यक् अस्ति. तैः वैरिभिः सख्यं विधाय, ल्यबन्त पदम् अस्ति. तत् राजस्य
राज्ञः
वैरिभिः वयं सख्यं विधाय वयं मित्रता कृत्वा पुनरपि युद्धं करिष्यामः.
अत्र किमर्थं तृतीयविभक्ति इति प्रश्नः अस्ति, किमर्थम् इति सः इति
एक्साक्ट्लि
इति सख्यम् इति कस्य सख्यम् इति भवति, षष्ठीविभक्ति भवति
तृतीय
इति अस्ति, सः एव भवितुमर्हति. सः इति अध्यहर्तव्यं, तेन तृतीयविभक्ति भवति इति. अथवा करणे समीचीनं न भवति, वैरिभिः न करण इति करणार्थे समीचीनं न भवति इति अहं चिन्तयामि इदानीम्.
टु एक्षन्स् अस्ति, विधाय सख्यं विधाय वन् एक्षन्, युद्धं करिष्यामः अनदर् एक्षन्.
वाक्यद्वयम्
एक्साक्ट्, दट्स् वट् ऐ थिङ्क् कन्फ्यूसिङ्ग्.
अस्मिन् विषये किञ्चित् चिन्तनं कृत्वा अग्रिमे वर्गे चर्चयामः. अस्तु इदानीं
अग्रे नियमः कः इति, किमर्थं तृतीयविभक्ति अस्ति तत्र,
किमर्थं करणार्थे
अथवा सहयोगे एव तृतीया वा अथवा करणरूपेण भवति वा इति, किमर्थं षष्ठी न भवति इति.
अस्तु अस्तु, समीचीनप्रश्नः एव, अस्तु चिन्तनं कुर्मः. अस्तु अस्तु, तद् अग्रिमे वर्गे एषः एव विषयः, प्रथमविषयः भवति. अस्तु अस्तु, इदानीं तत्र शीतल भगिनी अन्तिमपरिच्छेदः यः अस्ति तं पठति वा भगिनि?
I have to leave and come again.
Oh, अस्तु अस्तु भगिनि, अस्तु अस्तु अस्तु, अन्यः कोऽपि पठति, धन्यवादः भगिनि, चिन्ता मास्तु, चिन्ता मास्तु, चिन्ता मास्तु भगिनि, अस्तु इदानीं तत्र ओ अस्तु 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 भगिनि, अस्तु अस्तु, चिन्ता मास्तु, अस्तु रघुवीरानन्दस्वामी अन्तिमपरिच्छेदं पठति वा?
आं महोदय. मन्त्रिणः सान्त्वनवचसा तुष्टः राजा दुःखं परित्यज्य उदतिष्ठत. अन्यैः राजभिः सख्यं विधाय पुनरपि युद्धं कृतवान्, स्वीयं राज्यं प्रति प्राप्तवान्. साहाय्यकृद्भ्यः
साहाय्यकृद्भ्यः
राज्भ्यः राजभ्यः प्रभूतम् उपायनादिकं दत्त्वा तान् तोषितवान्. मन्त्रिणा सह सुखेन चिरं राज्यपालनं च कृतवान्.
समीचीनं महोदय. इदानीं इदानीं मन्त्रिणः इति
मन्त्रिणः सान्
तत्र मन्त्रिणः इति विभक्ति का तत्र
मन्त्रिणः महोदय
षष्टि एकवचनं तस्य इति सः मन्त्री तस्य मन्त्रिणः
वचसा
वचस् वचसा इति तृतीयविभक्ति सान्त्वनवचसा सः सान्त्वयन् एतत् सर्वम् उक्तवान् खलु अतः तस्य सान्त्वनवचसा तुष्टः सन्तुष्टः राजा दुःखं त्यक्त्वा उदतिष्ठत्
उदतिष्ठत् इति अन्यपदं प्रायः महोदय
इदानीं तत्र
अतिष्ठत् उदतिष्ठत् सन्धि भूत्वा
उत् इति किं भवति
उत् इति अस्ति उत् उत् योग अतिष्ठत् बुद् योग अतिष्ठत् उदतिष्ठत् इति
उदतिष्ठत् 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 इति अर्थः कः
उत् इति उपरि
तावदेव उत्तिष्ठति अतः उत्थितवान् उत्थितवान् राजा उत्थितवान् दुःखं त्यक्त्वा उत्थितवान् अथवा उदतिष्ठत् अन्यैः अन्यैः इति विभक्ति का रघुवीरानन्दस्वामी
अन्यः अन्यैः तृतीया महोदय
तृतीयबहुवचनं तृतीयबहुवचनं ततः अन्यः राजा इदानीम् अन्यैः राजभिः अपि तृतीयबहुवचनं राजभिः सख्यं विधाय पुनः तदेव आगच्छति सख्यं विधाय पुनरपि युद्धं कृतवान् तदेव समानवाक्यं इदानीम् अग्रे
स्वीयं राज्यं प्रति प्राप्तवान्
स्वीयं राज्यं प्रति प्राप्तवान् तत्र स्वस्य राज्यम् अथवा स्वीयं राज्यं पुनः प्राप्तवान् इदानीं
साहाय्यकृद्भ्यः राजभ्यः राजभ्यः
इदानीं तत्र राजभिः इति तृतीया बहुवचनं तत्र प्रभूतम् उपायनादिकम् उपायनम् इत्युक्ते
बहुमानं
पुरस्कारम् इति तत्र उपायनम् उपायन आदिकं दत्त्वा यत्र अस्ति तत्र धनमस्ति चेत् तत्र जानीमः चतुर्थी इति राजभ्यः इति चतुर्थी बहुवचनं राजभ्यः प्रभूतम् उपायनादिकं दत्त्वा इदानीं राजभ्यः इति पदस्य विशेषणं साहाय्यकृद्भ्यः इति तत्र प्रथमविभक्तिरूपं किं भवति तत्र अथवा प्रातिपदिकं किं भवति
साहाय्यकृत्
इति समीचीनं महोदय साहाय्यकृत् साहाय कृद्भ्यः इति राजभ्यः प्रभूतम् उपायनादिकं दत्त्वा तान् तान् इदानीं तत्र
राजभ्यः
राजभ्यः इदानीं किन्तु तान् इति द्वितीयविभक्तिरूपम् अस्ति अतः राजा राजानौ राजानः इदानीं द्वितीयविभक्तिरूपं किम् अस्ति तत्र
राजानौ राजानः आम् ऊहं करोमि
तत्र राजानं राजानौ राज्ञः इति अस्ति तान् राज्ञः इति तत्र राज्ञः षष्ठी अपि पञ्चमी षष्ठी एकवचनमपि भवति अपि द्वितीयविभक्ति बहुवचनमपि भवति अतः राज्ञः
तान् राज्ञः तोषितवान्
तान् राज्ञः तोषितवान् मन्त्रिणा सह
सुखेन चिरं राज्यपालनं च कृतवान्
एषः राजा अस्तु समीचीनं हा अस्तु अतः तत्र केवलं तत्र एतद् वाक्यं यद् द्विवारम् आगतम् अस्ति तस्य विषये चिन्तनम् आवश्यकम् अस्ति तत्र तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः अथवा कृतवान् युद्धं कृतवान् इति किमर्थं तत्र सः नास्ति अपि किमर्थं तत्र तृतीया विभक्ति अस्ति इति अस्तु तद् तत्र अन्वेषणं कृत्वा अग्रिमवर्गे तस्य विषये चर्चां कुर्मः अस्तु इदानीम् अन्यप्रश्नः अस्ति वा अस्यां कथायां
महोदय अहं चिन्तयामि तृतीयविभक्ति उपयुज्य सः आवश्यकं सर्वत्र न आवश्यकम्
अस्तु पश्यामः भगिनि अन्वेषणं कुर्मः तत्र नियमः कः इति तत्र नियमः कः इति वदामश्चेत् सौकर्यं भवति नो चेत् केवलम् अस्तु अहं चिन्तयामि इति एव भवति किन्तु तत्र अहं चिन्तयामि तस्य कोऽपि लाभः नास्ति खलु यदि तत्र आधारम् आवश्यकं खलु किमर्थम् अथवा कस्मात् कारणात् इति किमपि वक्तव्यमस्ति भगिनि अतः तत्र किञ्चित् अन्वेषणं कृत्वा अग्रिमवर्गे तस्य विषये चर्चयामः अतः तत्र सम्यक् एव तत्र किञ्चित् परिशीलनम् आवश्यकम् इति मन्ये अस्तु समीचीनमेव अस्तु अस्तु तर्हि किञ्चित् अग्रे गच्छामः तत्र अभ्यासः यः अस्ति तत्र प्रथमः अभ्यासः तत्र तत् पश्यामः तत्र इदानीं नरेश् महोदय आरम्भं करोति वा अभ्यासः
आं महोदय अभ्यासः तत् सङ्ख्याकं गीताश्लोकं परिशील्य कोष्ठकात् युक्तं रूपं चित्वा रिक्तस्थानं पूरयत रिक्तं स्थानम् आत्मानम् उद्धरेत् मानम् उद्धरेत् अत्र तु तृतीयविभक्ति
सत्यं तत्र अत्र किं करणीयम् इत्युक्ते तत्र श्लोकं दृष्ट्वा एव एतत् कर्तुं शक्नुमः यदि श्लोकः न जानीमः श्लोकं न जानीमः तत्र एतत् कर्तुं न शक्नुमः किन्तु प्रथमं तु आत्मना एव अस्ति आत्मना आत्मानम् उद्धरेत् इति अस्ति अस्तु अतः वयं किं कुर्मः तत्र प्रायशः तत्र एतत् श्लोकं सर्वं दृष्ट्वा एव तत्र उचितरूपं वक्तुं शक्नुमः इति कृत्वा एतत् अग्रिमवर्गे अथवा गृहपाठरूपेण एतत् कुर्मः अपि अग्रिमवर्गे एतत् पठामः अग्रिमपुटे द्वितीय अभ्यासः अस्ति तम् अभ्यासम् इदानीं कुर्मः अथ नरेश् महोदय अग्रिम अभ्यास एव पठतु महोदय
अर्धवाक्यद्वयं
योजयित्वा एकं वाक्यं लिखत. अत्रापि श्लोकानि श्लोकाः सन्ति. पृच्छामि
मात्रापि प्रायशः तत्र अस्तु अस्तु इदानीं तत्र अग्रे किमस्ति निरूपाणि उपयुज्य अस्तु ज्ञानी सुखी अस्ति अस्तु अतः तत्र प्रायशः
तृतीय अस्ति
महोदय. प्रथमं कर्तुं शक्यते, द्वितीयं किञ्चित्
तत्र पृच्छामि भवति वा, किं पृच्छामि माम् इति तदनन्तरं वा?
न प्रथमाभ्यासः
प्रथमाभ्यासः इति वा रघुवीरानन्द महोदय?
आं महोदय, प्रथमाभ्यासं कर्तुं शक्यते. किमर्थं चेत् तत्र आप्षन्स् अपि अस्ति.
आप्षन्स् अपि अस्ति. अस्तु 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 अतः अस्तु एतदेव प्रयत्नम् एतदेव कर्तुं प्रयत्नं कुर्मः.
द्वितीयं किञ्चित् क्लेशं भवति.
अस्तु तत्र अस्तु नरेश् महोदय, एतदेव कुर्मः, तत्र प्रयत्नं कुर्मः. तत्र प्रथममस्ति आत्मना इति. इमे देहाः, ओ प्रायशः तत्र इमे देहाः इति तत्र विशेषणम् अस्ति इति मन्ये. अतः अन्तवन्तः इति, इमे देहाः अन्तवन्तः इति. समीचीनम्, अस्तु समीचीनं महोदय. अस्तु अन्यत् अन्यत् अपि करोतु, तदनन्तरम् अन्यः कोऽपि
योगः योगः कौशलं कौशलं योगः सप्तमी विभक्ति अहं मन्ये कर्मसु
कर्मसु एव. समीचीनं महोदय, हा योगः कर्मसु कौशलं हा इति तदेव समीचीनम्. अस्तु हा समीचीनम् अस्तु. इदानीम् अत्र हा रघुपतिमहोदय अग्रे करोति वा?
शान्तिः नास्ति कुत्र, अभावे
अभावे अभावे शान्तिः नास्ति. समीचीनं हा अस्तु अग्रे.
अभावे अभावयतः पञ्चमी विभक्ति अभावयतः.
अस्तु तत्र पश्यामः तत्र
अभावयतः अभाव अभावयतः इति लिङ्क् अभावयतः इति.
अस्तु एकनिमिष तत्र अभावयतः इति अस्तु
अभाव वा अभावयतः इत्युक्ते अभाव
तत्र पञ्चमे कारणतः इति चिन्तनं, किन्तु पश्यामः तत्र किम् अस्ति इति.
अभावेषु अपि सम्यक् अस्ति
भवति, अभावस्य शान्तिः न भवति
अभावेषु
न, किन्तु श्लोके अभावयतः इति एव अस्ति. नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् इति. अतः तत्र अभावयतः इति एव समीचीनमस्ति. अग्रे प्रयत्नं कुर्मः, नो चेत् श्लोकं पश्यामः. अस्तु अग्रे महोदय. यः रघुपतिमहोदय
आम् यः इन्द्रियाणि नियम्य आरभते सः विशिष्यते. यः इन्द्रियाणि नियम्य, केन नियम्य? अस्तु मनसा
मनसा एव
महोदय. इन्द्रियाणि मनांसि आगतं शक्यते वा?
न नियम्य इन्द्रियाणि इन्द्रियाणां नियमनम् इन्द्रियाणां नियमनं केन इति. इन्द्रियाणां नियमनं मनसा भवति. यः इन्द्रियाणि मनसा नियम्य,
किन्तु एतत् इन्द्रिया 3.17 तत्र तु
मनांसि द्विवचनं
महोदय. इन्द्रियाणि इति अत्र कर्मपदमस्ति,
कर्मपदं
द्वितीया
मनसा इति मनसा नियम्य
किमर्थं मनांसि
कर्मपदं खलु कर्मपदस्य
लक्ष्मी भगिनी किमर्थं मनांसि इति भवती चिन्तयति
मनांसि इन्द्रियाणि
इन्द्रियाणि नियम्य नियम्य इति अस्ति तत्र नियम्य किन्तु 3.17 मध्ये एतद् नास्ति एतद् नास्ति तत्र श्लोकस्य संख्यायाः दोषः अस्ति इति मन्ये तत्र कोऽपि जानाति वा हा एतत्तु 3.17 नास्ति अस्तु
मनसा एव अस्ति तत्तु स्पष्टमस्ति
हा मनसा इति एव इति चिन्तनं किन्तु तत्र श्लोकस्य संख्याया विषये तत्र दोषः अस्ति इति मन्ये तत्र रघुवीरानन्दस्वामी भवान् जानाति वा तत्र
कया नियम्य महोदय मनसा नियम्य
मनसा नियम्य किन्तु श्लोकः कस्मिन् अध्याये भवति इति जानाति वा महोदय 3.17 तु नास्ति तत्र किन्तु
72 किमपि नास्ति
3.17 नास्ति किन्तु तत्र
मनसि न आगच्छति
अस्तु अस्तु चिन्ता मास्तु महोदय अग्रे शुभदा भगिनी अग्रे करोति वा
आं महोदय ये मे मतं नानुतिष्ठन्ति तान् ये अभ्यसुयन्तः मे मतं नानुतिष्ठन्ति तान् किमर्थम् इत्युक्ते बहुवचनमस्ति ये नानुतिष्ठन्ति क्रियापदमपि बहुवचने अस्ति अतः अभ्यसूयन्तः
तत्र अभ्यसूयन् इति प्रथमविभक्ति एकवचनरूपम् अभ्यसूयन् अभ्यसूयन्तौ
अभ्यसूयन्तः
इति समीचीनं भगिनि हा तदेव तदेव अत्र अत्रापि अस्ति श्लोके तदेव अस्ति हा अग्रे
ओके तस्य कण्टिन्युयेशन् अस्ति डेश् नष्टान् विद्धि तान् अचेतांसि नष्टान् विद्धि
तत्र प्रायशः अचेतसः इति अस्ति तत्र श्लोके अचेतसः इति अस्ति अचेतसः अचेतस् इति अचेतस् इति अस्ति भगिनि तत्र अचेतसः इति नष्टान् विद्धि इति तत्र प्रायशः अत्र किं समीचीनं तत्र रूपं दृष्ट्वा न वक्तुं शक्नुमः इति मन्ये तत्र प्रायशः श्लोकस्य अर्थः आवश्यकः अथवा अन्यत् किमपि किन्तु प्रथमभागः सुलभतया कृतवन्तः द्वितीयभागः श्लोकं दृष्ट्वा एव करणीयम् इति मन्ये अस्तु
3.7 अस्ति तत् इन्द्रियाणि मनसा एव अस्ति 3.7 इति
ओ 3.7 अस्तु महोदय धन्यवादः
नियम आरभते अर्जुन कर्मेन्द्रियैः कर्मयोगं कर्मयोगमसक्तः स विशिष्यते
ओ अस्तु समीचीनं महोदय तत्र अचेतसः द्वितीयविभक्ति इति प्रायशः अचेतसः द्वितीयविभक्ति इति मन्ये खलु तत्र बहुवचनम् इति अस्तु तत्र अचेतसः इति एव रूपम् अस्ति भगिनि अस्तु अग्रिमं करोतु भगिनि 3.39 तत्र सप्तम
अचेतसः इति पञ्चमी षष्ठी एकवचन भवति महोदय मनसेव
द्रष्टव्यमस्ति भगिनि तत्र सकारान्तपदमेव सकारान्तपदमेव किन्तु तत्र रूपं द्रष्टव्यमस्ति
ज्ञानं नित्यवैरिणा कामेन आवृत्तं भवति ज्ञानिनः
तत्र एकनिमिष श्लोकं दृष्ट्वा वदामि. तत्र हा ज्ञानिनः इति, हा ज्ञानिनः इति, हा
षष्ठीविभक्ति ज्ञानिनः ज्ञानं नित्यवैरिणा कामेन आवृत्तं भवति.
हा समीचीनं भगिनि, हा तद् तदेव अस्ति. अस्तु अग्रे लक्ष्मी भगिनि.
प्रकृतिसम्भवाः गुणाः अव्ययं निबध्नन्ति. देहिषु
अथवा देहिनं प्रायशः देहिषु अथवा देहिनम् इति तत्र द्रष्टव्यमस्ति, पश्यामः तत्र. हा नो चेत् तत्र हा सम्यक् न वक्तुं शक्नुमः. तत्र एकनिमिषः पश्यामि. एतत् दृष्ट्वा एव तत्र ओ अत्र तु नास्ति. तत्र प्रकृतिसम्भवाः तत्र एतत् अत्रापि दोषः अस्ति, सङ्ख्यायाः विषये दोषः अस्ति. हा अस्तु भगिनि, न जानामि. अस्तु अस्तु तर्हि एतत् प्रायशः गृहपाठरूपेण एव करणीयम् इति मन्ये. हा यतोहि तत्र श्लोकस्य अवलोकनं कृत्वा एव तत्र सम्यक् रूपं किम् अस्ति इति वक्तुं शक्नुमः. अस्तु तर्हि तत्र समयः अपि जातः, अतः तत्र अत्र विरमाम. अग्रिमवर्गे तत्र यत् वाक्यमासीत् तस्मिन् विषये किञ्चित् अन्वेषणं कुर्मः. अपि ये श्लोकाः सन्ति तान् परिशील्य तत्र रिक्तस्थाने उचितं रूपं किम् इति अपि तद् गृहपाठरूपेण कुर्मः. अस्तु तर्हि अन्यप्रश्नः अस्ति वा? अस्तु नो चेत् तत्र रघुवीरानन्दस्वामी अन्ते शान्तिमन्त्रम्
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्कारः महोदय.
नमस्कारः. धन्यवादः.